बन्धुस्नेहं विजह्यां तव हि करुणया त्वय्युपावेशितात्मा सर्वं त्यक्त्वा चरेयं सकलमपि जगद्वीक्ष्य मायाविलासं नानात्वात् भ्रांतिजन्यात् सति खलु गुणदोषावबोधे विधिर्वा व्यासेधो वा कथं तौ त्वयि निहितमतेः वीतवैषम्यबुद्धेः क्षुत्तृष्णालोपमात्रे सततकृतधियो जन्तवः सन्ति अनन्ताः तेभ्यो विज्ञानवत्वात् पुरुष इह वरः तज्जनिः दुर्लभैव तत्रापि आत्मात्मनस्यात् सुहृदपि च रिपुः यस्त्वयि न्यस्तचेताः तापोच्छित्तेरुपायं स्मरति स हि सुहृत् स्वात्मवैरी ततोऽन्यः त्वत्कारुण्ये प्रवृत्ते क इव न हि गुरुः लोकवृत्ते विभूमन् सर्वाक्रान्तापि भूमिः न हि चलति ततः सत्क्षमां शिक्षयेयं गृह्णीयामीशा तत्तद्विषयपरिचयेऽपि अप्रसक्तिं समीरात् व्याप्तत्वं चात्मनो मे गगनगुरुवशात् भातु निर्लेपता च स्वच्छस्यां पावनोऽहं मधुर उदकवत् वह्निवत् मा स्म गृह्णां सर्वान्नीनोऽपि दोषं तरुषु तमिव मां सर्वभूतेषु अवेयां पुष्टिर्नष्टिः कलानां शशिन इव तनोः नात्मनोऽस्तीति विद्यां तोयादिव्यस्तमार्ताण्डवत् अपि च तनुषु एकतां त्वत्प्रसादात् स्नेहात् व्याधास्तपुत्रव्यसनमृतकपोतायितो मा स्म भुवं प्राप्तं प्राश्नन् सहेयक्षुधमपि शयुवत् सिन्धुवत्स्याम् अगाधः मातप्तं योषिदादौ शिखिनिशलभवत् भृङ्गवत्सारभागी भूयासं किन्तु तद्वत् धनचयनवशात् माहमीषा प्रणेशं माबध्यासं तरुण्या गज इव वशया नार्जयेयं धनौघं हर्तान्यस्तं हि माध्वीहर इव मृगवत् मामुहं ग्राम्यगीतैः नात्यासज्जेय भोज्ये झष इव बडिशे पिङ्गळावत् निराशसुप्यां भर्तव्ययोगात् कुरर इव विभो सामिषः अन्यैः न हन्यै वर्तेयत्यक्तमानसुखम् अतिशिशुवत् निःसहायश्चरेयं कन्यायाएकशेषो वलय इव विभो वर्जितान्योन्यघोषः त्वच्चित्तो नावबुद्ध्यै परम् इषु कृदिव क्ष्माभृतायानघोषं गेहेषु अन्यप्रणीतेषु अहिरिव निवसानि उन्दुरोर्मन्दिरेषु त्वय्येव त्वत्कृतं त्वं क्षपयसि जगदिति ऊर्णनाभात् प्रतीयां त्वच्चिन्ता त्वत्स्वरूपं कुरुते इति दृढं शिक्षये पेशकारात् बिड्भस्मात्मा च देहो भवति गुरुवरो यो विवेकं विरक्तिं धत्ते सञ्चिन्त्यमानो मम तु बहुरुजापीडितोऽयं विशेषात् हि हि मे देहमोहं त्यज पवनपुराधीशा यत्प्रेमहेतोः गेहे वित्ते कळत्रादिषु च विवशिताः त्वत्पदं विस्मरन्ति सोऽयं वन्नेशुनो वा परमिह परतः साम्प्रतं च अक्षिकर्ण त्वग्जिह्वाद्या विकर्षन्ति अवशम् अत इतः कोऽपि न त्वत्पदाब्जे दुर्वारो देहमोहो यदि पुनः अधुना तर्हि निःशेषरोगान् हृत्वा भक्तिं द्रढिष्ठां कुरु तव पदपङ्केरुहे पङ्कजाक्षा नूनं नानाभवान्ते समधिगतमिमं मुक्तिदं विप्रदेहं क्षुद्रेहाहन्त मा क्षिप विषयरसे पाहि मां मारुतेशा ओं तत्सदिति श्रीमन्नारायणीये त्रिनवतितमं दशकं समाप्तं श्रीहरये नमः रमा रमण गोविन्दा गोविन्दा श्रीकृष्णार्पणमस्तु।